एतत् सर्वनाम स्त्रीलिंग येथे ही पुल्लिंगाप्रमाणेच द्वितीया विभक्तीची तीनही वचनांची प्रत्येकी दोन दोन रूपे होतात, म्हणून ती अगदी सावकाश म्हणावीत. ऐका हा, एषा, एते, एताः प्रथमा, एताम, एनाम, एते, एने, एताः, एनाः द्वितीया, एतया, एनया, एताभ्याम, एताभिः तृतीया, एतस्यै, एताभ्याम, एताभ्यः चतुर्थी, एतस्याः, एताभ्याम, एताभ्यः पञ्चमी, एतस्याः, एतयोः, एनयोः, एतासाम षष्ठी, एतस्याम, एतयोः, एनयोः, एतासु सप्तमी.